नमः हरिः ॐ
आदित्यहृदयस्तोत्रम्
अस्य श्री आदित्यहृदयस्तोत्रमहामन्त्रस्य अगस्त्यो भगवान् ऋषिः अनुष्टुप् छन्दः श्रीसूर्यनारायणो देवता निरस्त अशेषविघ्नतया सर्वत्र जयसिद्ध्यर्थे जपे विनियोगः
ॐ रश्मिमते अङ्गुष्टाभ्यां नमः ॐ समुज्यते तर्जनीभ्यां नमः ॐ देवासुरनमस्कृताय मज्जमाभ्यां नमः ॐ विवस्वते अनामिकाभ्यां नमः ॐ भास्कराय कनिष्ठिकाभ्यां नमः ॐ भुवनेश्वराय करतलकरपृष्ठाभ्यां नमः
ॐ रश्मिमते हृदयाय नमः ॐ समुज्यते शिरसे स्वाहा ॐ देवासुरनमस्कृताय शिखायै भषट् ॐ विवस्वते कवचाय हुम् ॐ भास्कराय नेत्रत्रयाय भषट् ॐ भुवनेश्वराय हस्त्राय भट् भूर्भुवः सुवरोमिति दिग्भ्रन्तः ध्यानम्
ध्यायेत्सूर्यमनन्तकोटिकिरणम् त्रैलोक्यचूडामणिम्
भक्तानामभयप्रदम् दिनकरम् ज्योतिर्मयम् शङ्करम्
आदित्यम् जगदीशमच्युतमजम् त्रैयर्थसारम् रविम्
भक्ताभीष्टफलप्रदम् च्युतिनिभम् मार्ताण्डमाज्यम् विभुम्
ॐ ततो युद्धपरिश्रान्तम् समरे चिन्तया स्थितम् रावणम् चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्
दैवतैश्च समागम्य दृष्टुमभ्यागतो रणम् उपागम्य ब्रवीद्रामम् अगस्त्यो भगवान् ऋषिः
राम राम महाबाहो शृणु गुह्यम् सनातनम् येन सर्वा नरीन् वत्स समरे विजयिष्यसि
आदित्यहृदयम् पुण्यम् सर्वशत्रुविनाशनम् जयावहम् जपेन्नित्यम् अक्षय्यम् परमम् शिवम्
सर्वमङ्गलमाङ्गल्यम् सर्वपापप्रणाशनम् चिन्ताशोकप्रशमनम् आयुर्वर्धनमुत्तमम्
रश्मिमन्तम् समुज्यन्तम् देवासुरनमस्कृतम् पूजयस्व विवस्वन्तम् भास्करम् भुवनेश्वरम्
सर्वदेवात्मकोशेषः तेजस्वी रश्मिभावनः एष देवासुरगणान् लोकान् पादिगभस्थिभिः
एष ब्रह्मा च विष्णुश्च शिवस्कन्दः प्रजापतिः महेन्द्रो दनदः कालो यमः सोमो ह्यभाम्पतिः
पितरो वसवत्साध्य अश्विनौ मरुतो मनुः वायुर्वह्नि प्रजा प्राण ऋतुकर्ता प्रभाकरः
आदित्यः सविता सूर्यः गगः पूषा गभस्तिमान् सुवर्णसदृशो भानो हिरण्यरेतादिवाकरः
हरितश्व सहस्रार्चिः सप्तः सप्तर्मरीचिमान् तिमिरोन्मथनः शम्भुः त्वष्टामार्ताण्ड अंशुमान्
हिरण्यगर्भशिशिरः तपनो भास्करो रविः अग्निगर्भोदिदेवपुत्रः शङ्खशिशिरनाशनः
व्योमनाथस्तमो भेदि ऋग्गजः सामपारगः घनवृष्टिरपां मित्रः विञ्जवीते प्लवङ्गमः
आतपीमण्डले मृत्युः पिङ्गलः सर्वतापनः कविर्विश्वो महातेज दग्धः सर्वभवोद्भवः
नक्षत्रग्रहधाराणाम् अधिभो विश्वभावनः तेजसामपि तेजस्वी द्वादशात्मन्नभोऽस्तु ते
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ज्योतिर्गणानाम् पतये दिनाधिपतये नमः
जयाय जयभद्राय हर्यश्वाय नमो नमः नमो नमः सहस्रांशो आदित्याय नमो नमः
नम उग्राय वीराय सारङ्गाय नमो नमः नमः पद्मप्रबोधाय वार्ताण्डाय नमो नमः
ब्रह्ममेषानाच्युदेशाय सूर्यायाधित्यवर्चसे भास्वते सर्वभक्षाय रौद्राय वपुषे नमः
तमोऽघ्नाय हिमग्नाय शत्रुघ्नाय विधात्मने कृतघ्नघ्नाय देवाय ज्योतिषाम् पतये नमः
तप्तशामीकराभाय मह्नये विश्वकर्मणे नमस्तमोऽभिनिघ्नाय ऋषये लोकसाक्षिणे
नाशयच्चेष वै भूतम् तदेव सृजति प्रभुः पायच्चेष तपच्चेष वर्षच्चेष गमस्तिभिः
येष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः येष शैवाग्निहोत्रम् च फलम् शैवाग्निहोत्रिणाम्
वेदाश्च क्रतवश्चैव क्रतूनाम् फलमेव च यानि कृच्यानि लोकेषु सर्वजेष रविः प्रभुः
येन मापत्सु हृत्सेषु कान्तारेषु भयेषु च कीर्तयन् पुरुषः कश्चित् नावसीतधिराघव
पूजयस्येन मेकाग्रः देवदेवम् जगत्पतिम् एतत्त्रिगुणितम् जप्त्वा युद्धेषु विजयिष्यसि
अस्मिन् क्षदे महाबाहो रावणम् त्वम् वधिष्यसि एवमुक्त्वा तदागस्त्यो जगाम च यथा गतम्
एतच्छ्रुत्वा महातेज नष्टशोकोऽभवत्तदा धारयामास सुप्रीतः राघवः प्रयतात्मवान्
आदित्यम् प्रेक्ष जप्त्वा तु परम् हर्षमवाप्तवान् त्रिराचम् व्यशुचिर्भूत्वा धनुराधाय वीर्यवान्
रावणम् प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् सर्वयत्नेन महता वदेतस्य द्रुतोऽभवत्
अथरविरवदन् निरीक्ष्य रामम् मुदितमनाः परमम् बृहश्यमाणः निशिशरपति संक्षयम् विदित्वा सुरगणमध्यगते वचस्त्वरेति इत्यार्षे श्रीमत्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे आदित्यहृदयम् नाम सप्तोत्तरशततमः सर्गः। आदित्योदयस्तोत्रम् सम्पूर्णम्।